सर्वेश्वराय नमः हरिः ओम् तच्चं योरा ब्रवीमहे दातुं यज्ञाय दातुं यज्ञपतये दैवेः स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शय्योऽस्तु द्विपदे चञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षपुरुषः सहस्राक्षः सहस्रपाद स भूमिं विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्कुलं पुरुषभेदघुं सर्वं यद्भूतं यच्च भव्यं उदामृतत्वस्येषानः यदन्वेनातिरोहति वेदामानस्य महिमा अथो जायागश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतं दिवि त्रिपादोद्वमुदैपुरुषः पादो सेहाभवात् पुनः ततो विश्वं व्यक्रामत् साशदानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भो विमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्य सीदाज्यो ग्रीष्म विद्मः शरद्धभिः सप्तास्या सर्वहृदयः त्रिसप्तः सविदः कृताः देवा यद्यज्ञन्तं वानाः अबध्नन् पुरुषं पशुं तैयज्ञं बहिषु प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वभूतः संवृतं वृषराज्यं पशुगुस्तादुश्चक्रे वायव्याने आरण्यां ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋचः सामानि जग्निरे चन्दाभुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वाजायन्त ये केशो भयाधतः गावो गजग्निरे तस्मात् तस्मा जाता अजावयः यत्पुरुषं व्यदधुः कथिताव्यकल्पयन् मुहं किमस्य कौ बाहु काहूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः पूरो तदस्य यद्वैश्यः पद्यागुं शूद्रो अजायत चन्द्रभावनसो जातः चक्षो सूर्यो अजायत मुखादीन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासेदन्तरिक्षम् शीर्ष्णोद्यौ समवत्थता पद्भ्यां भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदागमेतं पुरुषं महान्तौ आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा अभिवदन् यदास्ते दाता पुरस्ताद्यमुदा जहाना शक्रप्रभिद्वान् प्रदिशश्चथस्रः तमेवं विद्वान् अमृतमिह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः ताभिधर्माणि प्रथमान्यासन् ते हनाकं महिमानः सचन्ते यत्र पूर्वे साद्या सन्ति देवाः अभ्यः सम्भूतपृथिव्यैरसाश्च विश्वकर्मणः समवत्तदादि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदागमेतं पुरुषं महान्तौ आदित्यवर्णं तमसः परस्ताद् तदेवं विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गद्भे अन्तः अजायमानो बहुधा विजायते तस्य दीर्घा परिजानन्ति योनि मरीचीनां पदमिच्छन्ति भेदसः यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असंवशे क्रीष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्याप्तौ इष्टं मनिषाणाम् अमुं मनिषाणाम् सर्वं मनिषाणाम् ॐ तच्चयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपदये दैवी स्वस्तिवस्तुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगादुवेषजं शय्योऽस्तु द्विपदे सञ्चतुष्पदे ॐ शान्ति। शा